ओम नमो भगवते वासुदेवाय। अथ द्वादशोऽध्यायः। मैत्रेय उवाच, ध्रुवं निवृत्तं प्रतिबुध्य वैशसादपेतमन्युं भगवान् धनेश्वरः। तत्रागतश्चारणयक्षकिन्नरैः संस्तूयमानोऽभ्यवदत्कृताञ्जलिम्। धनद उवाच, भो क्षत्रियदायादपरितुष्टोऽस्मि ते नघ। यस्त्वं पितामहादेशाद् वैरं दुस्त्यजमत्यजः। न भवानवधीर् यक्षान्न यक्षाभ्रातरं तव। काल एव हि भूतानां प्रभुरप्ययभावयोः। अहं त्वमित्यपार्थाधीरज्ञानात् पुरुषस्य हि स्वाप्नी वा भात्य तद्ध्यानाद्यया बन्धविपर्ययौ। तद्गच्छ ध्रुवभद्रं ते भगवन्तमधोक्सजं सर्वभूतात्मभावेन सर्वभूतात्मविग्रहं। भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदं युक्तं विरहितं शक्त्या गुणमय्यात्ममायया। वृणीहि कामं द्रिपयन्मनोगतं मत्तस्त्वमौत्थानपदे विशङ्कितः। वरं वरार्होऽं भुजनाभपादयोरनन्तरं त्वां वयमङ्गशुश्रुम। मैत्रेय उवाच, स राजराजेन वराय चोदितो ध्रुवो महाभागवतो महामतिः। हरौ सवव्रे चलितां स्मृतिं यया तरत्ययत्नेन दुरत्ययं तमः। तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः। पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत। अथा यजत यज्ञेशं क्रतुभिर्भूरि दक्षिणैः। द्रव्यक्रिया देवतानां कर्मकर्मफलप्रदम्। सर्वात्मन्यच्युते सर्वे तीव्रौघां भक्तिमुद्वहन्। तदर्शात्मनि भूतेषु तमेवावस्थितं विभुम्। तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलं। गोप्तारं धर्मसेतूनां मे निरेपितरं प्रजाः। षट्त्रिंशद्वर्षसाहस्रं शशासक्षितिमण्डलम्। भोगैः पुण्यक्षयं कुर्वन्न भोगैरशुभक्षयम्। एवं बहुसवं कालं महात्मा विचलेन्द्रियः त्रिवर्गौपैकं नीत्वा पुत्रायादान् नृपासनम्। मन्यमानैदं विश्वं मायारचितमात्मनि अविद्यारचितस्वप्न गन्धर्वनगरोपमम्। आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोशमन्तःपुरं परिविहार भुवश्च रम्याः। भूमण्डलं जलदिमे खलमाकलय्य कालोपसृष्टिमिति सप्रययौ विशालाम्। तस्यां विशुद्धकर्णः शिववार्विगाय्य बद्ध्वासनं जितमरुन्मनसा हिताक्षः। स्थूले दधार भगवत्प्रतिरूप एतद्ध्यायं सदव्यवहितो व्यसृजत् समाधौ। भक्तिं हरौ भगवति प्रवहन्न जस्रमानन्दबाष्पकलया मुहुरर्द्यमानः। विक्लिद्यमानहृदयः पुलकाचिताङ्गो नात्मानमस्मरदसा वितिमुक्तलिङ्गः। सददर्शविमानाग्र्यं नभसोऽवतरद्ध्रुवः। विभ्राजयद्दश दिशो राकापतिमिवोदितम्। तत्रानुदेवप्रवरौ चतुर्भुजौ श्यामौ किशोरावरुणाम्बुजे क्षणौ। स्थितावष्टभ्यगदां सुवाससौ किरीटहाराङ्गदचारुकुण्डलौ। विज्ञायतावुत्तमगायकिङ्करावभ्युत्थितः साध्वसविस्मृतक्रमः। न नाम नामानि गृणन्मधुद्विषः पार्षत्प्रधानाविति संहताञ्जलिः। तं कृष्णपादाभिनिविष्टचेतसं बद्धाञ्जलिं प्रश्रयनं रकन्धरम्। सुनन्दनन्दावुपसृत्य सस्मितं प्रत्युचतुः पुष्करनाभसम्मतौ। सुनन्दनन्दावूचतुः, भो भो राजन् सुभद्रं ते वाचं नो वहितशृणु। यः पञ्चवर्षस्तपसा भवान् देवमती त्रिपत्। तस्याखिलजगद्धातु रावां देवस्य सार्ङ्गिणः। पार्षदाविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम्। सुदुर्जयं विष्णुपदं जितं त्वया यत्सूरयो प्राप्य विचक्षते परम्। आतिष्ठतच्चन्द्रदिवाकरादयो ग्रहक्षताराः पर्यन्ति दक्षिणम्। अनास्थितं ते पितृभिरन्यैरप्यङ्गकर्हिचित्। आतिष्ठजगतां वन्द्यं तद्विष्णोः परमं पदम्। एतद्विमानप्रवरमुत्तमश्लोकमौलिना उपस्थापितमायुष्मन्नधिरोढुं त्वमर्हसि। मैत्रेय उवाच, निशम्य वैकुण्ठ नियोज्य मुख्ययोर्मधुच्युतं वाच मुरुक्रमप्रियः। कृताभिषेकः कृतनित्यमङ्गलो मुनीन् प्रणम्याशिषमभ्यवादयत्। परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदावभिवन्द्य च इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयं। तदोत्तानपदः पुत्रो ददर्शान्तकमागतं मृत्योर्मूर्ध्निपदं दत्त्वा आरुरोहाद्भुतं गृहम्। तदा दुन्दुभयो नेदुर्मृदङ्गपणवादयः गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः। स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः। अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् इति व्यवसितं तस्य व्यवसायसुरोत्तमौ। दर्शयामास तुर्देवीम् पुरोयानेन गच्छतीम् तत्र तत्र प्रशंसद्भिः पथिवैमानिकैः सुरैः अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् त्रिलोकीम् देवयानेन सोतिव्रजमुनीनपि परस्ताद् यद्ध्रुवगतिर्विष्णोः पदमथाभ्यगात् यद्भ्राजमानम् स्वरुचैव सर्वतो लोकाश्रयो यनु विभ्राजन्त एते यन्नाव्रजन्तु सुयेन अनुग्रहा व्रजन्ति भद्राणि चरन्ति ये निशम् शान्ता समदृश शुद्धा सर्वभूतानुरञ्जनाः यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः इत्युत्थानपदः पुत्रो ध्रुवः कृष्णपरायणः अभूत्रयाणाम् लोकानाम् चूडामणिरिवामलः गम्भीरवेगो निमिषम् ज्योतिषाम् चक्रमाहितम् यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवाम् गणः महिमानम् विलोक्यास्य नारदो भगवान् ऋषिः आतोद्यम् वितुदम् श्लोकान् सत्रे गायत् प्रचेतसाम् नारद उवाच नूनम् सुनीते पतिदेवतायास्तप प्रभावस्य सुतस्य ताम् गतिम् दृष्ट्वाप्युपायानपि वेदवादिनो नैवाधिगन्तुम् प्रभवन्ति किम् नृपाः यः पञ्चवर्षो गुरुदारवाक्षरैर्भिन्नेन यातो हृदयेन दूयता वनम् मदादेशकरोजितम् प्रभुम् जिगाय तद्भक्तगुणैः पराजितम् यः क्षत्रबन्धुर्भुवि तस्याधिरूढ मन्वारुरुक्षेदपि वर्षपूगैः षट्पञ्चवर्षो यदहोभिरल्पैः प्रसाद्य वैकुण्ठमवाप तत्पदम् मैत्रेय उवाच एतत्तेऽभिहितम् सर्वम् यत्पृष्टोऽहमिह त्वया ध्रुवस्योद्दाम यशसश्चरितम् सम्मतम् सताम् धन्यम् यशस्यमायुष्यम् पुण्यम् स्वस्त्ययनम् महत् स्वर्ग्यम् द्रव्यम् सौमनस्यम् प्रशस्यमघमर्षणम् श्रुत्वै तच्छ्रद्धया भीक्ष्णमच्युतप्रियचेष्टितम् भवेद्भक्तिर्भगवती यया स्यात्क्लेशसंशयः महत्त्वमिच्छताम् तीर्थम् श्रोतुशीलादयो गुणाः यत्र तेजस्तदिच्छूनाम् मानो यत्र मनस्विनाम् प्रयतः कीर्तयेत् प्रातः समवायेद्विजन्मनाम् सायम् च पुण्यश्लोकस्य ध्रुवस्य चरितम् महत् पौर्णमास्याम् सिनीवाल्याम् द्वादश्याम् श्रवणेऽथवा दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा श्रावयेच्छ्रद्धधानानाम् तीर्थपादपदाश्रयः नेच्छंस्तत्रात्मनात्मानम् सन्तुष्ट इति सिध्यति ज्ञानमज्ञाततत्त्वाय यो दद्यात् सत्पथे मृतम् कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते इदम् मया ते विहितम् कुरुद्वः ध्रुवस्य विख्यातविशुद्धकर्मणः हित्वार्भकः कीर्दनकानि मातुर्गृहम् च विष्णुम् शरणम् योजगाम ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्दे ध्रुवचरितम् नाम द्वादशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।